अद्य सुपि अस्ति अनुक्तम् अपि उहति पण्डितोः जनाः जनाः उहति जनाः किम् उहति अनुक्तम् उहति जनाः अनुक्तम् अपि उहति पण्डिताः जनाः अनुक्तम् अपि उहति पण्डितः जनाः द वैस्मेन् उहति गेस् और् अण्डर्स्टेण्ड् उहति
does another meaning of the Veda or something, that's uhti.
Uhti is to guess, it's like gachati, khadati. Uhti means guess, they can understand or they can guess. Panditaha janaha uhti, wise men, they can guess. Anuktam, what is not even said, anuktam. What's not said. Api also, they can also guess what is not even spoken.
That's why they are Pandita, right?
Yeah. So that is the meaning of this Sukti. So then Gita Masti Astu. Jio, let's do the lead and follow. Let's see how it goes. Because here the echo comes in, and I'm never comfortable with singing. Jyotirudeti, Jyotirudeti,
Jyotirudeti, Jyotirudeti.
नवयुग ज्योतिरुदेति
नवयुग ज्योतिरुदेति
जगत इदं किल पुरतो नेतुं
जगत इदं किल पुरतो नेतुं
नवलोक हितैषे
अभिनवलोक हितैषे
भारत जननी हृदय समुद्गत
भारत जननी हृदय समुद्गत
सत्य सनातन ज्योति
सत्य सनातन ज्योति
भासुर चरित पुनार्चनार्थम्
भासुरचरित पुनार्चनार्थम्
समुदित मङ्गलज्योति
समुदित मङ्गलज्योति
जागरयितुम् इह सुप्त समाजम्
जागरयितुम् इह सुप्त समाजम् लोकयितुं नवमार्गम्
साधयितुं
समुपैति
मुनिजन दर्शित
मुनिजन दर्शित पदमाश्रय एति
स्मुज्वल ज्योति
समुज्वल ज्योति
ज्योति
प्रकरं ज्ञेयं निह हृदि विदधत्
अनुपमवृद्धिमुपैति
अनुपमवृद्धिमुपैति
ज्योतिरुदेति ज्योतिरुदेति
ज्योतिरुदेति ज्योतिरुदेति
नवयुग ज्योतिरुदेति
नवयुग ज्योतिरुदेति
जगदितमखिल पुरतो
नेति
अभिनवलोकहितैषि बहु समीचीनं धन्यवादः अद्य
भगिनि एतस्य गीतस्य मीनिङ्ग्
अर्थः कः
अर्थः कः
अर्थः इट् इस् लैक् इट् विल् नीड् टु बि एक्स्प्लेन्ड् लैक् वन् वर्ड् एट् अ टैम् ज्योति ज्योतिर् इट् इस् ज्योतिः उदेति सो देर् इस् विसर्ग हियर् ज्योतिः उदेति ज्योतिः उदेति नवयुग् नवयुव ज्योतिः रुदेति ज्योतिः उदेति नोट् रुदेति इट् विल् बि उदेति र इस् द विसर्गः जगत् इदं जगत् इदं खिलं पुरतः नेतुं नेतुं इस् टु लीड् अभिनव् इस् न्यू लोक हितैषी फोर् द न्यू फोर् द हित् आफ् द न्यू वर्ल्ड् सो वी आर् टेकिङ्ग् दिस् ज्योति देट् द पिक् आफ् लैट् to lead to the new for the new world for the welfare of the new world so it's a nice meaning but it needs to be explained word by word so I think it will be if we go into sandhi rules and all that at this stage it will be for somebody who is just learning the language might be confusing
Mm-hmm. So I wanted to know overall meaning, that's all. Word by word is difficult, no?
Yeah, okay, I will find out and post it with the email okay. that I normally send. Okay, okay
thank
you. So then, and then Kati, Kati. Adhya, Kati Vishyaha Janimaha. Kati Phalani Santi. कति फलानि सन्ति यदि अहं कोऽपि केचन वाक्याः वदामि कृपया शृण्वन्तु नगरे नगरे दश देवालयाः सन्ति दश देवालयाः सन्ति मीन्स् देर् आर् टेन् टेम्पल्स् सो हौ वुड् यु आस्क् हौ मेनि टेम्पल्स् आर् देयर् इन् द टौन् नगरे कति देवालयाः सन्ति चित्रे कति फलानि सन्ति चित्रे षट् फलानि सन्ति चित्रे कति फलानि सन्ति? पुस्तके कति पृष्ठाः सन्ति? पुस्तके कति पृष्ठाः सन्ति?
पुस्तके
इट् विल् बि चत्वारि चत्वा लैक् वी हेव्
चत्वराशीतिः
आशीतिः आशीतिः चत्वा चत्वा आशीतिः
चतुराशीतिः
there will be bagini there will be sandhi here chatva chatvara
I think chaturshitihi
na kshem so because there is a o in the end so it will be just ra chatur ashitihi चतुर्षितिः चतुर्षितिः सो आस्क् कपल् आफ़् क्वशन् सो यु कुड् जस्ट् यूस् एनी जस्ट् आस्क् द क्वश्चन् तत्र विंशतिः कदलीफलानि सन्ति सो if we let's start with the Vimla Bhagini, can you ask the question for this sentence? Tatra vimshatihi kadli phalani santi.
Tatra kati kadli phalani santi.
Tatra kati kadli phalani santi. Then vidyale shatam छात्राः सन्ति सुजाता भगिनी
आं भगिनि विद्यालये कति छात्राः सन्ति
सो गृहे पञ्च प्रकोष्ठाः सन्ति नैन भगिनि
कति पञ्चक्रोशाः सन्ति गृहे
गृहे
कति कति पञ्च वट् इस् ए पञ्च
यु डोण्ट् नीड् टु से गृहे पञ्च प्रकोष्ठाः सन्ति
कति कति प्रकोष्ठाः सन्ति गृहे लैक् देट्
सो गृहे कति प्रकोष्ठाः सन्ति देन् रमेश महोदय वृक्षे वृक्षे पञ्चदश फलानि सन्ति
वृक्षे कति फलानि सन्ति
वृक्षे कति फलानि सन्ति सो संगीता भगिनी नेक्स्ट रुग्णालये पञ्चाशत् रुग्णाः सन्ति
रुग्णालये कति रुग्णा अस्ति सन्ति
रुग्णालये कति रुग्णाः सन्ति
रुग्णाः सन्ति
देन् भानुमती भगिनी तस्याः
एक्स्क्यूस् मी
समीपे क्षम्यतां भगिनी ऐल् कम् बेक् टु यु इन् अ मिनिट् तस्याः समीपे चत्वारिंशत् शाटिकाः सन्ति
तस्याः समीपे कति शाटिकाः सन्ति.
रुग्णालय मीन्स् हास्पिटल्.
यस् यस्
ओके थैङ्क्स्.
Rugnalaya is hospital. So now you can make one sentence using kati. Pichatu, mam pichatu, mam pichatu. Oh, kshamyatam, Rishikesh Mohode. Aranyahe shashtihi gajaha santi. Rishikesh Mohode?
अन्यः कति गजाः सन्ति.
अरण्ये कति गजाः सन्ति. समीचीनं. सो नौ कमला भगिनी इस् हियर् एस् वेल्. कमला भगिनी जस्ट् जोयिन्. सो क्वश्चन् इस् कति नो क्षम्यताम् अरण्ये कति व्याघ्राः सन्ति. सो देन् द आन्सर् वुड् बि अरण्ये ओर् वने पञ्च व्याघ्राः सन्ति. सो इफ् ऐ से मार्गे दश कुक्राः सन्ति. Then Kamala Bhagini, can you ask the question? How would you ask? How many dogs are in the street?
Marge kati kukura santi.
Kukuraha santi.
Kukuraha santi.
So one thing you will notice that with the kati, there is always santi. It's never asti because we don't know how many. So it's how many. So marge kati. शुनकाः सन्ति, बिडालाः सन्ति. सो एनिथिङ्ग्. सो नौ यू केन् मेक् वन् सेण्टेन्स् ईच् यूसिङ्ग् कति. इस् इट् ओके. सो वि विल् स्टार्ट् वित् नैना भगिनी, केन् यू मेक् ए सेण्टेन्स्?
गृहे पञ्च बालकाः सन्ति. गृहे कति बालकाः सन्ति?
समीचीनं. देन् विमला भगिनी,
मेनि मीन्स् हौ केन् ऐ से मेनि? देर् आर् मेनि स्टार्स् इन् द स्काई लैक् दट्.
So then you will have to use a different shabd. Bahavah will come if it is a pulingah. Bahavah, because then you are using
For then this is nakshatra, means this is napumsakalinga, correct? Can I use this
nakshatra? Then yeah, you can use that.
बहवः केन् ऐ यूस्
बहूनि
बहूनि बहूनि. आकाशे बहूनि नक्षत्राणि सन्ति. आकाशे कति नक्षत्राणि सन्ति?
समीचीनं. देन् इट् इस् सुजाता भगिनि.
कक्षायाः विंशतिः छात्राः सन्ति. कक्षायाः कति छात्राः सन्ति?
कति छात्राः सन्ति? हा समीचीनं. देन् इट् इस् हूस् नेक्स्ट्? इट् ऐ थिङ्क् रमेश महोदय.
ग्रन्थालये कति पुस्तकानि सन्ति? ग्रन्थालये बहूनि पुस्तकानि सन्ति.
ग्रन्थालये बहूनि पुस्तकानि सन्ति. समीचीनं. देन् नेक्स्ट् इस् कमला भगिनी, इस् इट्?
यस् वन् सेकेण्ड्.
क्रीडाक्षेत्रे कति युवकाः सन्ति? क्रीडाक्षेत्रे कति युवकाः सन्ति? ओ क्रीडकाः सन्ति. देन् भानुमती भगिनी.
हां भगिनी, रैल् यानेन बहूनि रैल् पेटिकायां सन्ति.
क्षम्यतां, पुनः वदतु.
रैल् यानेन बहूनि रैल् पेटिकायां सन्ति.
ये रैल् यानेन बहूनि रैल् यानेन नास्ति भगिनि, रैल् याने.
रैल् याने
बहूनि
बहूनि रैल् पेटिकायां सन्ति.
You don't need to say bahu. It is okay if you are using bahu shabda, huh? But remember that you will be confusing quite a lot with the bahu, because you have to think whether it is with the neuter or it is with the istrilinga or it's with the pulinga. So when you are using, or you can just say put it together rather than having two separate words. So you could say bahu petika. When you're speaking, it's one word rather than two. Bahu petika santi. Then you don't have to worry about it.
Bahu petikayam santi.
Petikaha.
Petikaha santi. Railyane kati petikaha santi.
But normally, when you are asking kati, I think somebody else also did that. So normally, the answer is expected in terms of some number, definite number. So another word is kiyat. I think I haven't missed anybody, have I?
Kiyat, yes. Oh my.
Yes.
I'm missed. Sangeeta is missed.
Sangeeta, Bhagini.
ऋषिकेश
इस आल्सो मिस्ड. हां ऋषिकेश आल्सो. फर्स्ट संगीता भगिनी वदतु, देन ऋषिकेश.
मम भवत्या कक्षे कति छात्राः सन्ति? मम कक्षे अद्य 9 छात्राः सन्ति.
भवत्याः कक्षायां कति छात्राः सन्ति? मम कक्षायां 9 छात्राः सन्ति. कक्षायां.
अच्छा,
ओके. कक्षे, क्षम्यतां, कक्षायां.
ओके,
कक्षायां. ऋषिकेश महोदय, नेक्स्ट वन.
व्हाट डू वी से टू फैमिली मेंबर्स?
बान्धवा.
गृहे कति बान्धवाः सन्ति?
गृहे कति बान्धवाः सन्ति? बान्धवा इज़ लाइक अ रिलेटिव. गृहे कति बान्धवाः सन्ति? समीचीनं महोदय. देन् अनदर् वर्ड् देट् वी डोण्ट् हाव् द इन् द स्लैड्स् इस् कियत्. कियत् इस् यूस्ड् वेन् वी आर् द आन्सर् इस् नोट् इन् लैक् इट्स् लैक् वेन् यु आर् सेङ्ग् हौ मेनि, बट् देन् यु आर् आल्सो इन् इङ्ग्लिश् यु मैट् बि आस्किङ्ग् हौ मच्. सो यु मैट् से like kiyat kalam tishtati, how long will you stay here? Kiyat kalam, how long, in terms of time. It's not exactly like translation word by word. It's the bhav that is implied here. Kiyat kalam tishtati, that how long will you stay here, like that. Bhavataha व्ययः कियत्, देट् इन् टर्म्स् आफ् व्ययः इस् द एज्. देन् हौ ओल्ड् आर् यू, in that terms, then you will be using kiyat. Or you might say pustakasya mulyam kiyat. That how much does this cost, book cost? Sometimes you can use kati or kiyat. Kati falani dadami, how many I give? Or you might say kiyat falani dadami, or kiyat pustakani dadami. So like that, you can use kiyat as well from in terms of how much or how large or how great. In any of those bhav, in that sense, you can use kiyat. Is that does it make it clear, or does it confuse you even more?
I need some more examples like that for using.
So, for example, if you say, "Kiyat pareshitvati," for example, how much did you serve me the food, for example? So, like you might say in surprise, like, "Kiyat pareshitvati." Somebody is serving you food, and then you might like, you are just holding your hands up and saying, like, how much have you served me? Kiyat pariveshitvati. Or you might say, kiyat sundaram asti. That, how nice is this? Kiyat sundaram asti. If you are not very clear, it's a little bit later. It's kati is enough for now, because even it's not clear, given in the slides, kiyat. But I thought it was related to that, so I introduced you this word kiyat. But it should be, for example, you might say asya mulyam kiyat, where you can't measure the things, like fluid. You can't say that it is that give me little bit or little bit of that, when you can't put it into a number, then you will use kiyat. When you can clearly use a number, like kati falani santi, you can say shat falani santi. You can't say in terms, it is a direct answer that it is shat. You might say shire kati keshaha santi. Kiyat keshaha santi, kiyat, because you can't count them. So you could use their kiyat in terms of, like, if there is water flowing in the river, so you might say kiyat jalam asti. Kiyat jalam, because you don't quantitatively, you can't measure it, then you will use kiyat. Otherwise, kati. Kati is how many. Just if you remember, how many, wherever you have to use how many, then you will use kati. And if it is how much, then you will use kiyat. I won't ask you to make any sentences right now for that, but think of some of the sentences during the week that you might try, and then we can discuss it further in the next week. So, shall we move on?
I'm bagini.
So, agree, Saramaha. So, next is kutra. Kutra. Kutra is where. We have done kutra, like atra, tatra, kutra, sarvatra, ekatra, if you remember from our previous slides. So, here, syutaha asti. स्यूतः अस्ति, फलमस्ति. चित्रे स्यूतः अस्ति, फलमस्ति. फलं कुत्र अस्ति? फलं स्यूते अस्ति. फलं स्यूते, इट् इस् इन्सैड् द बेग्. फलं स्यूते अस्ति. रामः अस्ति, रामे, राम, देन् यु विल् एड् ए टु मेक् इट् इन् टु सप्तमी विभक्ति. So if we do some of the sentences, I think when we were doing the Kati, all of you almost used Saptami Vibhakti. Grehe Kati Bandhavaha Santi, Vrikshe Kati Phalani Santi. So you add A when it is a pulling Shabda. Rame, I can't think of any, Vrikshe, Kati Parnani Santi. So if we have now, let's do little bit of प्राक्टिस् अभ्यासः. उत्पेटिका अस्ति, उत्पेटिका अस्ति, अङ्कनी अस्ति, उत्पेटिका अस्ति, अङ्कनी अस्ति. सो ऋषिकेश महोदय, अङ्कनी कुत्र अस्ति?
अङ्कनी उत्पीटिका अस्ति.
अङ्कनी उत्पीटिकायाम् अस्ति. Because utpetika is a strilingaha, is ankni is on the table. So ankni utpetikayam
asti.
Shamyatam bhagini, shamyatam. Cannot say utpetike.
No, it's just it is a
like
no, like we did kaksha, kakshayam, remember?
Yeah.
So it's a istrilinga shabda, utpetika. Utpetika is a istriling shabda, then it becomes utpetikayam. Kakshayam, sitayam. So it will be it will be a yam in the end you will be using
for striling, right?
For striling, but is but for some of the pronouns that we will go further, there are different forms. Sitayam, balayam, that is for striling shabda. We will do the some of the other endings as well in a minute. So nadi asti, nadi asti, meenaha asti, nadi asti, meena asti, meenaha asti. So nena bhagini, meenaha kutra asti,
meenaha nadyam asti, because I see over there.
Yeah, it is there. Nadyam. So, E, Nadi, is Ikaranta. So, you add Yam in the end. So, what happens, like with the Sita, Sita, you add
Yam.
I think there is a typo here. So you no, it's correct. That's fine. So Sita and you add Yam. Sita Yam, Rama Yam, Rama Yam. When it is Nadi, then it becomes Nadi Nad E plus Yam. So that becomes Nad Nadyam. And bhavati, for example, bhavati, bhavatayam, bhavatayam. So e becomes ya, bhavatayam. E actually is dropped here. E is dropped. Bhavat. Bhavatayam. So, mati becomes matyam. Matyam. Then, say it is kartari. What will be the sentence for that? Kartariyam. Kartari, kartari, kartariyam. Kartariyam.
Kartariyam.
Then, Lakshmi, for example. So, it is Lakshmihi. Then, that becomes Laksha. Lakshmayam. Here also E is dropped. So any E karanta, it is E gets dropped and you just add yam in the end. So let's try making some of the sentences and then we will go further with the ikaranta. If you can think of Nadi.
One question. Like Ankani Utpitikayam Asti. But one can say na Ankani Utpitikayam Upari Asti. Can we say
that? Yeah, you can say Upari, but that main thing about Saptami Vibhakti is that it gives something the sense of a Adhar. Adhar is like some sort of support. Then you can use upari, there is no problem. You can add as many words that you like. There is what was your sentence? Ankani utpetika
yam asti asti was a sentence you have told earlier.
So, utpetika yam upari asti, there is no problem with that.
No, but whether just saying utpitikayam asti is good enough or it is required?
It's good enough. It is good enough because it is on it.
Okay.
There is no need to use anything extra. Just it is on the table. That's what it is saying.
Okay.
That pen is on the table.
Okay. So whenever we are using Saptami Vibhakti, then in that case, this kind of Upari Purata, on those kind of things are not to be used, not required?
I think don't confuse with the other words. Just focus on the Saptami Vibhakti first and then we can talk about others. I will cover all the Purataha, Prichataha, Upari, Adha. We will do that in a separate next chapter because there is a lot to discuss about that. But here what we are saying, for example, we have like Noka, Nadi, and Chalati. So if I give a sentence, say, Sujata Bhagini, can you make a sentence out of these three words? Noka, Nadi.
Haan, Bhagini. Naukaha, Nadiyam, Asti.
Chalati. Chalati. Next, if I, Ramesh Mode, Aushadham, Kupi, Aushadham, Kupi.
Aushadhi, Kupyam, Asti.
Aushadham.
Aushadham, Kupyam, Asti.
Aushadham, Kupyam, Asti. So then next two words is Vastu and Pradarshini. Vimla Bhagini, can you make sentence? Pradarshini.
वस्तु प्रदर्शनीम् अस्ति प्रदर्शन्याम् अस्ति प्रदर्शन्याम् अस्ति
वस्तूनि बिकास् देर् विल् बि मेनि थिङ्ग्स्
वस्तूनि सन्ति
सन्ति
ओ सारि
वस्तूनि
प्रदर्शन्या सन्ति
देन् राजधानी एण्ड् मन्त्री नेक्स्ट् इस् रमेश महोदय राजधानी मन्त्री
मन्त्री मन्त्री राजधान्यां अस्ति
मन्त्री राजधान्याम् अस्ति राजधान्यां गच्छति no rajdhaniam gachati will be wrong asti is fine and then if we say nadi then it is sangeeta bhagini next nadi and balakah
balakah nadyam kadhi कति बालकाः तरन्ति
नद्यां कति बालकाः तरन्ति नेक्स्ट् इस् भानुमति भगिनी
हा भगिनि
जल जलं कूपी जलं
कूप्याः जलम् अस्ति
कूप्यां
कूप्यां जलम् अस्ति
कूप्यां जलम् अस्ति सो दट् इस् इकारान्त इकारान्त नौ वि विल् इट्स् इन् द स्लैड् ओ सर् that is not in the slide let's do nipunsaklingaha first patram asti jalam asti jalam patre asti it is same as pulling shabda right there is no akaranta pulling shabda patre asti पुष्पं पुष्पं बिकम्स् पुष्पे सो इफ् यु हेव् टु से फार् एक्साम्पल् द पेटल्स् पेटल्स् आर् ओन् द ओन् द फ्लावर् इन् द फ्लावर् so then you could say dalam or dalani pushpe santi petals it is or palashah palashani pushpe santi so the main thing is in here it follows the same rule as nipunsaklingah so here bidalah kutra asti so it is on that fence prachire asti prachire bidalah prachire asti so kutra let's make these sentences jalam kutra asti so let's do where were we we'll start with Bhanumati Bhagini to start off with Bhagini pick any of the sentences and you can like out of this you can you see the slides?
Ha bhagini.
Chennai
nagaram kutra asti? Chennai nagaram Tamil Nadu kshetrame asti.
Kshetre
asti.
Tamil Nadu kshetre asti. Dhanyavadah. Then Rishikesh Mode.
Ji bhagini. Adhyapika kutre asti? अध्यापिकाः कक्षालये अस्ति.
अध्यापकाः कुत्र अस्ति? देन् द वर्ड् इस् गिवन् विद्यालये. सो वट् विल् बिकम् विद्यालये? हौ विल् इट् चेञ्ज्?
अध्यापिकाः विद्यालयम् अस्ति.
विद्यालये इट् विल् बिकम्स् ए विद्यालये.
विद्यालये अस्ति.
So if I say Bharat, how would it change? Bharate.
Bharate.
If it's Rajya, it becomes Rajyaye.
Rajya.
Yute. Next is Naina Bhagini.
Vrukshaha putra asti. वृक्षः उद्याने अस्ति.
उद्याने अस्ति. समीचीनं. देन् सुजाता भगिनी.
आं भगिनि. पुस्तकं कुत्र अस्ति? पुस्तकं स्यूते अस्ति.
पुस्तकं स्यूते अस्ति. सो नेक्स्ट् इस् विमला भगिनी.
मृगाः मृगालयः. मृगाः कुत्र अस्ति? मृगाः मृगालये अस्ति.
मृगाः मृगालये सन्ति. बहुवचनं मृगः मृगाः. रमेश महोदय.
बालकाः कुत्र सन्ति? बालकाः क्रीडाङ्गणे सन्ति.
समीचीनं. बालकाः क्रीडाङ्गणे सन्ति. देन् सङ्गीता भगिनी.
सिंहः कुत्र अस्ति? सिंहः वने अस्ति.
सिंहः
वने अस्ति.
वने अस्ति. समीचीनं. देन् भानुमति भगिनी.
आं भगिनि. सिंहः वने अस्ति.
एनि अदर् सेण्टेन्स्?
लूयिबल् नगरं केण्टिक् राज्यमा. एक मिनिट् भगिनि. लूवियल् नगरं केण्टकी राज्यमे राज्ये
राज्याय राज्याये अस्ति. समीचीनं. देन् सो वेदर् इट् इस् ए न्यूटर् ओर् इट् इस् ए पुल्लिङ्ग् शब्दः आकारान्त ते ओन्लि change into A. So next is Akaranta Istriling and Ikaranta Istriling. So lekhni, like we've done before, lekhni becomes lekhnyam. Nadi becomes nadyam. And here we have some of the examples here. So Vishwanath Mandiram Kutra Asti. It is Naina Bhagini, can you make a sentence? Vishwanath Mandiram Kutra Asti.
Vishwanath Mandiram Kashye Asti.
Kashyam. Kashyam. Kashyam.
Kashyam. Kashyam.
Kashyam.
Kashyam.
Pay for free.
Kashyam.
Vishwanath Mandiram Kashi Nagare Kashi Nagare Asti.
Kashi. You could say Kashi Nagare, then Nagaram becomes that it is in Kashi city, or you could just say it is in the Kashi. So both are correct. Yeah. But when we are using the Ikaranta, then we are using Kashyam. So then, next is Sujata Bhagini. Mashi Asti.
Mashi Kutra Asti. Mashi Lekanya Asti.
Mashi Lekanya Asti. Dhanyavadaha. Next is Ramesh Mohade. Kalankaha Kutra Asti.
Kalankaha Shatikayam Asti.
Kalankaha Shatikayam. जैसे दाग होता है ना सम स्पॉट देन नेक्स्ट इज संगीता भगिनी आभरणम कुत्र अस्ति
आभरणम व्हाट इज द मीनिंग ऑफ आभरणम
इट्स लाइक एनी सॉर्ट ऑफ जो
अच्छा समथिंग ओके आभरणम नासिकायाम
आभरणम
आभरणम नासिकायाम अस्ति
आभरणम नासिकायाम
अस्ति हेलो व्हाट हैपेंड न सुनोति भगिनी मम न शृणोति
अनुराधा भगिनी माइक इज म्यूटेड आई थिंक
हाँ न शृणोति
हर माइक इज म्यूटेड
अच्छा ओके मैसेज करते हैं आई विल जस्ट मैसेज
In the meantime, we can do next one.
Okay. Anguli Yakaya.
Anguli Yakam, and then this is Anguli. So Li becomes Li becomes
Anguliyam Asti.
Okay. Anguli Yakam Anguliyam Asti. Vidyut Petika Ghati. विद्युत पेटिका घट्याः
विद्युत पेटिकायां घटी अस्ति
पेटिकायां
नो
विद्युत पेटिका
घटियाम् अस्ति
घटियाम् अस्ति या घटियाम्
next somebody
battery cell, correct? Vidyut petika means cell, I think, small,
I guess so, small. Battery, yeah. Next somebody should tell.
Okay, bhojanam stalika
stalikayam asti
asti
thalikayam
pati patram kapatika kapatikayam patram asti.
पात्रं कपाटिकायाम् अस्ति पर्णानि पर्णानि लतायाम् अस्ति
पर्णानि
मीन्स् पर्णानि प्लूरल्
पर्णानि लतायां सन्ति
सन्ति
लतायां
Correct.
So, E becomes I am. No, not that, only striling, for only I am.
And
also,
pulling becomes A. And what about napusakling? Napusakling?
It is basically akar and akar. It's pulling and pulling. Mm-hmm. Napusak goes as pulling.
Okay, so A. Okay,
so A. Yeah. But still it depends on A and E. E kar means a yam and akar is A. Hello, Q-tay. Q-tay.
Yes, we can hear. Yes, we can hear. Okay.
Hello, can you hear me? Hello, can you hear me?
Yeah.
Yes, yes, yes. We can hear you.
There is an echo.
Yeah, we can hear you.
Should we mute our?
Thank you.
So let's, okay, so you've been doing the practice. So you've done all that?
So we have come to the conclusion that E becomes I am. And pulling becomes A.
That is some echo. Hmm. Bhagini, vadatu. So, E becomes ya because when it's a ikaranta, you just drop the E and just add yam.
Okay.
For others, like Sita, when it's a karanta, long a, then you just add yam without thinking anything. You don't do anything with this, just add yam.
Hmm.
So when it is like a long E, like we had Lakshmi, Lakshmihi, then also you drop E. Don't need to think of anything. Just drop E or just add yam.
So this is only for Sriling, no?
For Sriling, Shabda.
Okay.
For pulling Shabda, huh? It is always for akaranta, short a, we are saying like Rama, Ramaha. So that becomes Rame.
Rame.
But when it is like Hari, so we have not done the short e for pulling shabda. But when it is like Hari, that becomes Harehe.
Okay.
So, and when it is like am I telling the right thing? In when it is ukaranta, that becomes like guro, that becomes long o, and I think we will cover that in the next, because I don't want to be confusing with other things. And I think I'm
Hari Harau Saptami Vibhakti.
Yeah, Harau.
Harau.
Shamyata, Saptami Vibhakti, Pustakam Asti, Ka page number?
Page number for what?
फॉर अभ्यास पुस्तकम
हाँ अभ्यास पुस्तकम सप्तमी विभक्ति हाँ हाँ
Oh, I haven't opened the Abhyas Pustakam. I don't know what page number it is on.
Oh, it's all right. Okay, no
yeah.
problem.
So, yeah, we can... it becomes... Guru Ho.
23 page. Page number... Prustanam. Trayvimshati.
Here they have not explained the O Karanta and E Karanta yet. So we'll do it afterwards, Bhagini. Just leave it for now.
Mm-hmm. Okay.
So let's do the next one, next topic, which is Kada. And I think we did the Kada before, did we not? We did Kada before as well.
We did it.
Very well. So for Rishikesh Mohode, we can just explain little bit for his sake. Can you see my slides?
No.
Yeah. Now we can see it. Yeah.
So what it is we did a lot of practice on it. So, anyway, Kada is, Mohode, it's about, it's asked when there is some sort of sense of time. So, when we are saying, Kada Utishthami, that what time I wake up, Kada, Bhavan Kada Utishthati, when did you wake up, Bhavan Kada Bhojanam khadati. So when do you eat food? Bhavan kada vidyalayam gachati. So then we use kada. Kada is the in terms of time. Whenever there is sense of time, then there is kada. So another thing is, like for example, when we say adhye bhanuvasraha. Bhanuvasraha kada? Adhye bhanuvasraha. We can say adhye bhanuvasraha. Today is bhanuvasraha. Shwaha is tomorrow. Adhye shukarvasraha. Shwaha chanivasraha. Parshwaha. Ravi Vasaraha, Parparshwaha, Som Vasaraha. Adhya Shukar Vasaraha, Adhya Shukar Vasaraha, Shwaha, Chani Vasaraha, Parshwaha, Parshwaha, Ravi Vasaraha, Parparshwaha, Som Vasaraha. Hyaha means yesterday. Yaha Guru Vasaraha, पर यह बुधवासरः पर यह मंगलवासरः सो इट कवर्स ऑल द 7 डेज ऑफ द वीक सो for those who want to practice, just they can answer, but for those who have already practiced, there is no need to do it again unless you wanted to. So if kalpanam karotu adhya mangalvasraha, adhya mangalvasraha, shvaha buddhvasraha kada, buddhvasraha kada. Anybody want to answer?
Shvaha buddhvasraha.
Yes. Okay. Adhya guru vasraha, Rishikesh Mohse, kada adhya guru vasraha, shukar vasraha kada? Shukar vasraha kada adhya guru vasraha?
Shukra vasraha Shvaha.
Shukra vasraha. So adhya bhanuvasraha. Adhya bhanuvasraha. Kamala Bhagini, adhya bhanuvasraha, guru vasraha kada?
Adhya bhanuvasraha, guru vasraha, bhanuvasraha is Sunday.
Adhya bhanuvasraha.
Okay. Shvaha somvasraha, parashvaha mangalvasraha, pra parashvaha budhavasraha.
Kada guru vasraha?
Par par hyaha
guru vasraha. Simple is adhya bhanuvasraha. Adhya, it's a Sunday today, so you go back 3 days.
Okay. Okay.
Then it
yaha shani vasaraha, parahyaha shukra vasaraha, pra parahyaha guru
vasaraha. Bhanumati Bhagini, do you want to practice?
Haan Bhagini.
So adhya mangal vasaraha, shukra vasaraha kada?
Adhya mangal vasraha, para parashvaha shukra vasraha.
Guru vasraha, guru vasraha, par parashvaha shukra vasraha. Anybody else want to practice?
Hi, Bhagini.
Okay, we'll do it with all. Adhya. Adhya chani vasraha. So guru vasraha kada? Adhya chani vasraha, guru vasraha kada?
Shani vasraha, yar bhanu vasraha, parahya som vasraha, para para yaha mangal vasaraha. So you asked me for guru vasara, right?
Going reverse way.
So
it's, yes, backward.
I'm going from here. There's backward, right?
Yeah, backward. So adhya chani vasraha.
Yaha shukra vasraha. Okay. I got forward. Okay. Yaha shukra vasraha, para yaha guru vasraha. Okay. Sorry.
So what I normally do, you can use your fingers to quickly find where it is. So Adhya, let's do Ramesh Mohde as well. Ramesh Mohde, Adhya Budhvasraha. Adhya Budhvasraha. Bhanuvasraha kada? Adhya Budhvasraha.
Praparashraha Bhanuvasraha.
क्षम्यताम् अद्य बुधवासरः
भानुवासरः
समीचीनं धन्यवादः देन् अद्य शुक्रवासरः अद्य शुक्रवासरः सोमवासरः कदा संगीता भगिनी हेव् यू डन्
वेट् अ मिनट् शुक्र शनि रवि श्वः प्रश
सोमवासरः कदा
परश्वः
परश्वः सोमवासरः अस्तु धन्यवादः नैना भगिनी अद्य मङ्गलवासरः शुक्रवासरः कदा अद्य मङ्गलवासरः
प्रपरश्वः शुक्रवासरः
समीचीनं परपरश्वः शुक्रवासरः ऋषिकेश महोदय वन् मोर् अद्य बुधवासरः अद्य बुधवासरः शनिवासरः कदा
शनिवासरः
अद्य बुधवासरः शनिवासरः समीचीनं परपरश्वः शनिवासरः धन्यवादः सो देट् इस् ओल् अबौट् कदा भवान् भवती कदा उत्तिष्ठति कदा उत्तिष्ठति भवतः विद्यालयः कदा आरम्भं करोति त्रैदिनं कदा ऐ डोण्ट् नो वट् दिस् सेण्टेन्स् इस् जुलै मासे चत्वारि दिनाङ्कः कदा मन्दिरं गच्छति कदा मन्दिरं गच्छति सो वेन् डु यु गो टु द टेम्पल् दूरदर्शनं कदा पश्यति दूरदर्शनं कदा पश्यति यु कुड् से विरामकाले पश्यामि और् यु कुड् से सप्तवादने पश्यामि प्रकृतिक्षोभः कदा अभवत् सिविल् वार् प्रकृतिक्षोभः कदा अभवत् प्रकृतिक्षोभः एकषष्टिः अधिक अष्टशताधिकसहस्रं तः पञ्चाष्टि अधिक अष्टशताधिकसहस्रं पर्यन्तम् अभवत् सो देट् इस् क्वैट् नैस् टु नो हौ टु से द लाङ्ग् संख्या सो यु स्टार्ट् फ्रोम् द बेक् एकषष्टिः सो 61 एकषष्टिः अधिक सो देट् इस् अधिक अष्ट शताधिक सो अष्ट शताधिक सो देट् इस् 800 ए अष्टशत प्लस् अधिक अष्टशताधिक सहस्रं सहस्रं तः अप् टु देट् पञ्चषष्टिः देन् इट्स् गोयिङ्ग् बेक् टु द नेक्स्ट् वर्ड् 65 पञ्चषष्टिः अधिक अष्टशताधिक 800 सहस्रतम पर्यन्तम् अभवत् अप् टु देट् इट् हेपन् सो ऐ थिङ्क् वि केन् डू मोर् प्राक्टिस् आन् लाङ्ग् वर्ड्स् लाङ्ग् संख्या मे बि नेक्स्ट् वीक् ओर् सम्थिङ्ग् देन् इट् विल् बि मोर् क्लियर् बट् वि डिड् इन् द टैम् एस् वेल् लैक् पञ्चाधिक् सो यूस् द वर्ड् देट् इस् अधिक्
क्षम्यतां भगिनि प्रकृतिक्षोभः मीन्स्
प्रकृति इस् द नेचर् प्रकृति इस् द नेचर् बट् देन् यू हेव् ए शोभः क्षोभः देट् इट्स् द कोप् देट् वेन् सो द मीनिङ्ग् आफ् क्षोभः इस् लैक् like moving or it could be anything like a trembling like earthquake or something like in this case it's a war it's talking about
corona
natural calamity
sorry I didn't hear that
no natural calamity shobha means
yeah it could be natural calamity that's why I said like a earthquake
Mm-hmm. And this corona is kshobham too?
Yeah, exactly. I didn't think of that. That is...
what is called? 2020 will be called what? 2020, how do you say?
Vimshati.
So, Vimshati, you will use Vimshati and... Vimshati. Vimshati, it will be Vimshalga there.
विंशति
इट् विल् बि र देर् विंशति लैक् चत्वारिंशत् सो विंशतिर्धिक्
ओके
then there will be no shatam then you will use the next
dvisahasram
dvisahasram
dvesahasram
dvesahasram so I have the sentence adyatan prakriti shobha vinshati dvisahasram asti
पुनः वदतु भगिनि
प्रकृतिशोभा प्रकृतिक्षोभा अद्यतन अस्ति विंशाधिक द्विसहस्रवर्षे
वर्षे इज़ फाइन बट यू आर यूजिंग अद्यतन एज वेल
आजकल चल रहा है nowadays
yeah I know what you are trying to say adhyatan
so, I should not mix up okay
yeah for the beginning just say it happened in 2020 or it's happening in 2020 how it is
bhavati hoga prakriti kshobha vinshati dhik dvisahasra varshe bhavati अभवत् न इट् इस् हेपनिङ्ग्
बिकास् इट् स्टिल् हियर्
भवति
सो द मेन् थिङ्ग् इस् लैक् यु आर् यूसिङ्ग् विंशतिः I'm just making sure that we are using the correct because there is vimshatihi is a visarga in the end and then vimshatihi adhik so you can just keep it separate vimshatihi adhik dvesahasram asti
dvesahasram acha vimshatihi adhik it will be really adhik separately adhik
vimshatihi adhik
okay dvisahasra सहस्रवर्षे सहस्रदिने
क्षम्यतां द्वाशहस्रे नोट् द्वे बिकास् इट्स् स्टिल् ट्रु द्वाशहस्रे
सहस्रं वर्षे आल्सो विल् कम् न वर्षे भवति
और् अस्ति भवति इस् लैक् इट्स् हेप्निङ्ग् स्टिल्
अस्ति अस्ति
Okay, then, so, yeah, I think we, so that is the Gitam for Kaha Vasaraha. So, let's try, today we are going to try two songs, Kaha Vasaraha, Som Vasaraha.
कः वासरः सोमवासरः
द ट्यून् गोस् लैक् कः वासरः सोमवासरः
कः वासरः सोमवासरः
सोमवासरे किम् अधेयम् सोमवासरे भाषाः
सोमवासरे भाषाः
कः वासरः भोमवासरः
कः वासरः भोमवासरः
भोमवासरे किम् अध्येयम्
भोमवासरे किम् अध्येयम्
भोमवासरे गणितं च
भोमवासरे गणितं च
कः वासरः बुधवासरः
कः वासरः बुधवासरः
बुधवासरे किम् अध्येयम्
बुधवासरे किम् अध्येयम्
बुधवासरे विज्ञानम्
बुधवासरे विज्ञानम्
कः वासरः गुरुवासरः
कः वासरः गुरुवासरः
गुरुवासरे किम् अध्येयम्
गुरुवासरे किम् अध्येयम्
कः वासरः कः वासरः
कः वासरः
गुरुवासरः
शुक्रवासरे किम् अध्येयम्
शुक्रवासरे किम् अध्येयम्
शुक्रवासरे तन्त्रज्ञानम्
शुक्रवासरे तन्त्रज्ञानम्
कः वासरः कः वासरः
कः वासरः
शनिवासरः शनिवासरे किम् अध्येयम्
शनिवासरे किम् अध्येयम्
शनिवासरे विविधकलाः
शनिवासरे विविधकलाः
कः वासरः धनुवासरः
कः वासरः भानुवासरः
भानुवासरे किम् अध्येयम्
भानुवासरे किम्
अध्येयम्
अध्येयम् भानुवासरे अन्यध्यायः
भानुवासरे अन्यध्यायः
भानुवासरे क्रीडाः
भानुवासरे क्रीडाः
धन्यवादः. इफ् एनी आफ् द वर्ड् इस् नोट् क्लियर् ऐ थिङ्क् सेल्फ् क्लियर् तन्त्रज्ञानम् इस् इन्स्ट्रुमेण्टल् social science,
social
science.
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा हरे दुःखभागभवे. ॐ शान्ति शान्ति
शान्ति. धन्यवादः. इफ् एनी गोट् एनी क्वश्चन्
भगिनी, वन् माय क्वश्चन्.